ओम नमो भगवते वासुदेवाय। अथैकोनपञ्चाशत्तमोऽध्यायः। श्रीशुक उवाच। सगत्वा हास्तिनपुरं पौरवेन्द्रयशोऽङ्कितं ददर्श तत्राम्बिकेयं सभीष्मं विदुरं पृथां सह पुत्रं च बाल्लीकं भारद्वाजं स गौतमं कर्णं सुयोधनं द्रौणीं पाण्डवान् सुहृदोपरान् यथावदुपसङ्गम्य बन्धुभिर्गान्धिनीसुतः सम्पृष्टस्तैः सुहृद्वार्तां स्वयं चापृच्छदव्ययम् उवास कतिचिन्मासान् राज्ञो वृत्तविवित्सया दुष्प्रजस्याल्पसारस्य खलच्छन्दानुवर्तिनः तेज ओजोबलं वीर्यं प्रश्रयादींश्च सद्गुणान् प्रजानुरागं पार्थेषु न सहद्भिश्चिकीर्षितम् कृतं च धार्तराष्ट्रैर्यत् गरदानाद्यपेशलम् आचख्यौ सर्वमेवास्मै पृथा विदुर एव च पृथा तु भ्रातरं प्राप्तमक्रूरमुपसृत्यतम् उवाच जन्मनिलयं स्मरन्त्यश्रुकलेक्षणा अपि स्मरन्ति नः सौम्य पितरौ भ्रातरश्च मे भगिन्यो भ्रातृपुत्राश्च जामयः सख्य एव च भ्रात्रेयो भगवान् कृष्णः शरण्यो भक्तवत्सलः पैतृस्वसेयान् स्मरति रामश्चाम्बुरुहे क्षणः सापत्नमध्ये शोचन्तीं मृगाणां हरिणीमिव सान्त्वयिष्यति मां वाक्यैः पितृहीनांश्च बालकान् कृष्णकृष्णमहायोगिन् विश्वात्मन् विश्वभावन प्रपन्नां पाहि गोविन्द शिशुभिश्चावसीदतीं नान्यत्तव पदां भोजात् पश्यामि शरणं नृणां बिभ्यतां मृत्युसंसारादीश्वरस्यापवर्गिकात् नमः कृष्णाय शुद्धाय ब्रह्मणे परमात्मने योगेश्वराय योगाय त्वामहं शरणं गता। श्रीशुक उवाच। इत्यनुस्मृत्य स्वजनं कृष्णं च जगदीश्वरं प्रारुदत् दुःखिता राजन् भवतां प्रपितामही समदुःखसुखो क्रूरो विदुरश्च महायशाः सान्त्वयामासतुः कुन्तीं तत्पुत्रोत्पत्तिहेतुभिः यास्यन् राजानमभ्येत्य विषमं पुत्रलालसम् अवदत् सुहृदां मध्ये बन्धुभिः सहृदोदितम् अक्रूर उवाच भो भो वैचित्रवीर्यत्वं कुरूणां कीर्तिवर्धन भ्रातर्युपरते पाण्डावधुनासनमास्थितः धर्मेण पालयन्नुर्वीं प्रजाशीलेन रञ्जयन् वर्तमानः समस्वेषु श्रेयः कीर्तिमवाप्स्यसि अन्यथा त्वाचरन् लोके गर्हितो यास्यसे तमः तस्मात् समत्वे वर्तस्व पाण्डवेष्वात्मजेषु च नेह चात्यन्तसंवासः कर्हिचित् केनचित् सह राजन् स्वेनापि देहेन किमु जायात्मजादिभिः एकः प्रसूयते जन्तुरेक एव प्रलीयते एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् अधर्मोपचितं वित्तं हरन्त्यन्येऽल्पमेधसः सम्भोजनीयापदेशैर्जलानीव जलौकसः पुष्णाति यानधर्मेण स्वबुद्ध्या तमपण्डितम् ते कृतार्थम् प्रहिण्वन्ति प्राणारायः सुतादयः स्वयं किल्बिषमादाय तैश्चक्तो नार्थकोविदः असिद्धार्थो विषत्यन्धम् स्वधर्मविमुखस्तमः तस्माल्लोकमिमम् राजन् स्वप्नमाया मनोरथम् वीक्ष्यायम्यात्मनात्मानम् समः शान्तो भव प्रभो। धृतराष्ट्र उवाच। यथा वदति कल्याणीं वाचं दानपते भवान् तथा नया न तृप्यामि मर्त्यः प्राप्य यथा मृतम् तथापि सूनृता सौम्य हृदि न स्थीयते चले पुत्रानुरागविषमे विद्युत्सौदामनी यथा ईश्वरस्य विधिं को नु विधुनोत्यन्यथा पुमान् भूमेर्भारावताराय योऽवतीर्णो यदोः कुले यो दुर्विमर्शपथया निजमाय येदम् सृष्ट्वा गुणान् विभजते तदनुप्रविष्टः तस्मै नमो दुरवबोधविहारतन्त्र संसारचक्रगतये परमेश्वराय। श्रीशुक उवाच। इत्यभिप्रेत्य नृपतेरभिप्रायं स यादवः सुहृद्भिः समनुज्ञातः पुनर्यदुपुरीमगात् शशंस रामकृष्णाभ्याम् धृतराष्ट्रविचेष्टितम् पाण्डवान् प्रति कौरव्य यदर्थम् प्रेषितः स्वयम् शशंस रामकृष्णाभ्याम् धृतराष्ट्रविचेष्टितम् पाण्डवान् प्रति कौरव्य यदर्थम् प्रेषितः स्वयम्। ॐ स्वस्ति श्रीमद्भागवते महापुराणे वैयासिक्याम् अष्टादशसाहस्र्याम् पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे एकोनपञ्चाशत्तमोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।